इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्री नरेन्द्रमोदी अद्य अवदत् यत् सर्वकारः गतैकादशवर्षेषु प्रभावपूर्णोपक्रमाणां श्रृङ्खलायाः माध्यमेन महिलानां नेतृत्वस्य विकासं पुनः परिभाषितवान् इति। केन्द्रस्य एनडीए सर्वकारस्य कार्यकालस्य एकादशवर्षपूर्तावधौ श्रीमोदी विकसितभारतं प्रति गम्यमानायां यात्रायां महिलानां परिवर्तनशीलां भूमिकाम् आरेखितवान्। सामाजिकप्रसारमाध्यमे प्रधानमन्त्री पुनः दृढीकृतवान् यत् सर्वेषु क्षेत्रेषु अनेकाः महिलाः उत्कृष्टतां प्रकटयन्त्यः सन्तीति। भाजपेति दलसदस्यस्य रविशङ्करप्रसादस्य नेतृत्वे सर्वदलप्रतिनिधिमण्डलं जर्मनीदेशयात्रां सफलतया समाप्य ह्यः देहलीनगरं प्राप्नोत्। आतङ्कवादविषयं विरुध्य भारतस्य शून्यसहिष्णुतायाः दृढं सन्देशं च प्रतिनिधिदलम् अग्रे नीतवत्। अन्ताराष्ट्रिय योगदिवसस्य भागरूपेण अखिल भारतीय योग आयुर्वेद संस्थानम् अद्यारभ्य सर्वसमावेशी योगेति विषयमवलम्ब्य त्रिदिवसीयम् अय्यङ्गार योग कार्यशालाम् आयोजयितुं सज्जम् अस्ति। सेनाध्यक्षः जनरल उपेन्द्र द्विवेदी उत्तराखण्डराज्यस्य गढ़वालनगरस्य अग्रक्षेत्रेषु नियुक्तानां सैनिकानां परिचालनस्य सैन्यसज्जतायाः समीक्षार्थञ्च ह्यः गढ़वालप्रदेशस्य अग्रस्थानानां भ्रमणम् अकरोत्। स्वस्य भ्रमणकाले सेनाध्यक्षः सीमायां रक्षमाणैः सैनिकैः सह वार्तालापमपि कृतवान्। सः तत्र परिचालनसज्जतायाः निरन्तरजागरूकतायाश्च उच्चमानानाम् अनुरक्षणस्य महत्त्वं दृढीकृतवान्। रूसदेशः कथयति यत् तस्य सैनिकाः पूर्वमध्य यूक्रेन प्रदेशस्य ड्नीप्रोपेस्टोव्स्क् प्रदेशं प्रति अग्रे गच्छन्ति इति। संयुक्तराज्य अमेरिकादेशे द्वौ भारतीय अमेरिकीयौ सञ्जयसिंहलः सुखकौरश्च टेक्सस् नगरे नगरपरिषदः निर्वाचने विजयं प्राप्तवन्तौ। विदेशमन्त्री डॉक्टर एस जयशंकरः ह्यस्तनादारभ्य फ्रांस यूरोपीय संघस्य बेल्जियम देशस्य च सप्तदिवसीयायाम् आधिकारिकयात्रायाम् अस्ति। फ्रांस देशस्य प्रवासकाले विदेशकार्यमन्त्री फ्रांस देशस्य यूरोप अथ विदेशकार्यमन्त्रिणा जीन नोएल वैरोट इत्यनेन सह द्विपाक्षिकचर्चां करिष्यति। सः फ्रांस देशस्य वरिष्ठनेतृत्वेन सह अपि सम्पर्कं विधास्यति। डॉक्टर जयशंकरः आदौ भूमध्यसागरीय रायसीना संवादेऽपि भागं ग्रहीष्यति। अत्रान्तरे यूरोपीयसंघस्य यात्रायां डॉक्टर जयशंकरः यूरोपीयसंघेन सह व्यूहात्मकं संवादम् अपि आचरिष्यति। डॉक्टर जयशंकरः यूरोपीय आयोगस्य यूरोपीयसंसदस्य च वरिष्ठनेतृत्वेन सह अपि संवादं स्थापयिष्यति। बेल्जियम देशस्य भ्रमणकाले मन्त्री बेल्जियम देशस्य उपप्रधानमन्त्रिणा विदेशमन्त्रिणा च मैक्सिम प्रीवोट इत्यनेन सह द्विपक्षिक परामर्शं करिष्यति। विदेशमन्त्रालयः एकस्मिन् वक्तव्ये अवदत् यत् इयं यात्रा यूरोपीयसंघेन फ्रांस बेल्जियम देशैश्च सह भारतस्य मैत्रीसम्बन्धान् इतोपि प्रगाढतरं करिष्यति इति। पञ्चविंशत्यधिकद्विसहस्रतमवर्षस्य फ्रेञ्च ओपन टेनिस इत्यस्यां क्रीडायां ह्यः इटालियन युगलं सारा इरानी जैस्मिन पाओलिनी चेत्येते क्रीडिके महिलायुगलवर्गस्य क्रीडां विजितवत्यौ। पुरुष एकलस्पर्धायाञ्च स्पेन देशस्य कार्लोस अल्कराजः स्वस्य फ्रेञ्च ओपन उपाधिं रक्षयितुं गतरात्रौ इटली देशस्य जानिक सिन्नर नामकं क्रीडकं पराजितवान्। श्रोतारः ध्यातव्यमस्ति यत् सिन्नरः विश्वस्य प्रथमस्थानधायकः क्रीडकः अस्ति इति वार्ताः।